अयमे अमरवाणी परिसेवन तत्पराः प्रिय सखायः संस्कृत साप्ताहिक्याः नवीनतमेऽस्मिन् अंके आधुनिकैः पौराणिकैश्च विषयैः पुनरेकवारं भवतां समेषां कर्णपटलम् आनन्दयितुम् उपतिष्ठमानोऽहं जतिन शर्मा सर्वादौ भवतां रसिकानाम् अभिनवेऽस्मिन् अंके भूयो भूयशः स्वागतं व्याहरामि। आगच्छन्तु मित्राणि रसमयेन सुभाषितामृतेन भवतः कार्यक्रमं प्रति प्रवेशयामि। तदिदम् अवधारयति निधिः झाः।
केयूराणि न भूषयन्ति पुरुषं हारान चन्द्रोज्ज्वला न स्नानं न विलेपनं न कुसुमं नालंकृता मूर्धजा वाणी का समलं करोति पुरुषं या संस्कृता धार्यते क्षीयन्ते खलु भूषणानि सततम् वाग्भूषणं भूषणम्।
धन्यवादाः महोदयायै। इदानीं प्रसंग प्रभागस्य अवसरो विद्यते, अतः सुमधुर स्वरवारिभिः अवसरमिमं सार्थकीकरोति निधिः तिवारी।
एहिलसत्सितशतदलवासिनि भारति मामकमास्यम् देहि च मे त्वदमरनिकरार्चित पादतले निजदास्यम् जडतर जीवन महमनीयम् जडतर जीवन श्रुति विरहान्नहि नृषु गणनीयम् निरवधि कृपां कुरुष्व दयामयि व्यपगच्छेन् मम दास्यम् एहि लसत्सित शतदलवासिनि भारति मामकमास्यम् भारति मामकमास्यम्।
रम्यो हि भवत्याः स्वरप्रवाहः भूरिशः धन्यता वचांसि। मित्राणि, यथा मया पूर्वमेव अभिहितं यत् आधुनिकैः पौराणिकैश्च विषयैः वयं भवतः आनन्दयामः, अतः यथा प्रतिज्ञं जगन्मण्डले प्रवर्तमानान् विषयान् संकलय्य भवतां समक्षम् उपस्थापयति अस्मदीय सहयोगिनी सुषमा कुमारी।
प्रधानमन्त्रिणा नरेन्द्रमोदिना भणितं यत् एकं राष्ट्रम् एकं निर्वाचनम् इति मते मन्त्रिमण्डलेन भारतीय लोकतन्त्रं सर्वाधिकं जीवन्तं सहभागीं च निर्मातुं महत्वपूर्णं पदक्षेपः उत्थापितः। जम्मू कश्मीरे विधानसभीय निर्वाचने प्रथमचरणे 61% मतदानम् आकलितम्। केन्द्रीय सहकारिता मन्त्रिणा अमितशाहेन प्रोक्तं यत् श्वेत क्रान्त्याः द्वितीय चरणे महिलाः सुदृढीभूताः भविष्यन्ति। अन्यलाभानतिरिच्य जैविक कृषिः अपि वर्धिष्यति। राष्ट्रपतिना द्रौपदी मुर्मू वर्यया सर्वेषु शैक्षणिक संस्थानेषु उच्चशिक्षामवाप्तुं महिलाः आत्मनिर्भरं च विनिर्मातुं शिक्षकाः अध्यर्थिताः। प्रधानमन्त्री नरेन्द्र मोदी क्वाड देशानां नेतॄणां शिखरोपवेशने भागं ग्रहणार्थम् अमेरिका देशं सम्प्राप्तः। संयुक्त राष्ट्रे भविष्य शिखरोपवेशने भागमपि गृहीतम्। विश्व नेतृभिः साकं द्विपाक्षिकं सम्मेलनम् अपि विदधितम्। जॉर्डन देशः कुष्ठरोगात् विनिर्मुक्तो प्रथमो देशः सञ्जातः।
सहयोगिन्यै धन्यवादाः। सुहृदः, विदितमेवेदं भवतां यत् सतां हि संगः सकलं प्रसूते इति। सज्जनाः हि ज्ञानमार्गस्य परमनिधानभूताः भवन्ति। तेषामेव माध्यमेन वयं स्वात्मनः श्रोतृवृन्दाश्च उपकर्तुं प्रभवामः। अतः आगच्छन्तु ज्ञानविज्ञाननिदर्शिन्यां प्रभागेऽस्मिन् महाजनानां प्रत्यक्षवचनम् अवधारयामः।
नमो नमः मित्राणि, अद्य अस्मिन् साक्षात्कार ज्ञानविज्ञान प्रभागे अस्माभिः साकम् उपस्थितास्ति राष्ट्रिय शैक्षिक अनुसंधान प्रशिक्षण परिषदः अजमेर स्थितस्य क्षेत्रीय शिक्षा संस्थानस्य सहायकाचार्य डॉक्टर यास्मिन अशरफ वर्या। स्वागतमस्ति अस्मिन् कार्यक्रमे महोदये।
धन्यवादः।
तावत् प्रथमः प्रश्नोऽयं विद्यते यत् राष्ट्रिय शिक्षा नीत्यानुसारं संस्कृतं तस्य महत्त्वं च किम्?
वयं सर्वं जानीमः संस्कृतं संविधानस्य अष्टम अनुसूच्याम वर्णिता महत्वपूर्णा आधुनिक भाषा विद्यते। सः एव संस्कृत शास्त्रीय भाषा अपि च। अस्याः साहित्यम् एतादृशं विशालं विद्यते। लैटिन ग्रीक साहित्यं मेलयित्वा तुलना क्रियते चेदपि समानता न भवति। सरल संस्कृत साहित्ये गणितं दर्शनं व्याकरणं संगीतं राजनीति चिकित्सा वास्तुकला धातुविज्ञानं नाटकं कविता कथा यस्य संस्कृत ज्ञानप्रणाल्यां परिगणना भवति इत्यादि विषयाणां विशाल भाण्डागारो विद्यते। एतेषां साहित्यानां लेखनं भिन्न धार्मिक जनैः सह धार्मिकेतर जनैः सामाजिक आर्थिक पृष्ठभूमि वर्गीय जनैः अपि सहस्र वर्षेभ्यः लिखितं विद्यते। अनया रीत्या संस्कृतं त्रिभाषासूत्रस्य मुख्याधार विकल्पेन सह विद्यालयेषु उच्चतर शिक्षायाः सर्वेषु स्तरेषु छात्राणां कृते महत्वपूर्णेन समृद्धेन विकल्पेन सह प्रदीयते।
अस्तु, किं पाठ्यपुस्तकानां माध्यमेन भारतीय भाषाणां कलायाः संस्कृतेश्च संवर्धनं भवति वा न वा?
भवति अपि जानीमः भारतं संस्कृते समृद्धभाण्डागारः वर्तते या सहस्रवर्षतः विकसिता वर्तते। सा कलासु साहित्यिक कृतिषु प्रथासु परम्परासु भाषाभिव्यक्तिषु कलाकृतिषु ऐतिहासिकेषु सांस्कृतिक सम्पत्ति स्थलेषु च परिलक्षितो भवति। भारते भ्रमणं भारतीय आतिथ्य सत्कारस्य आनन्दः भारतस्य सुन्दर हस्तशिल्पानां हस्तनिर्मित वस्त्राणां च क्रयणं भारतस्य प्राचीन साहित्यस्य पठनं योग ध्यानयो अभ्यास भारतीय दर्शन शास्त्रेण प्रेरणा भारतस्य विभिन्न पर्वसु भाग ग्रहणम् भारतस्य वैविध्यपूर्ण संगीतस्य कलायाश्च प्रशंसनम् भारतीय चलचित्राणां दर्शनम् इत्यादयः केचन आयामः वर्तन्ते। येषां माध्यमेन विश्वस्य कोटिशः जना अस्यां सांस्कृतिक विविधतायां सम्मिलिताः भवन्ति एवम् अस्यानन्दं स्वीकुर्वन्ति लाभान्विताश्च भवन्ति। एषा एव सांस्कृति की प्राकृतिकी सम्पद वर्तते यः भारतस्य पर्यटन घोषणा इत्यस्यानुसारेण भारतं वास्तवरूपेण अतुल्य भारतं निर्मितम् इनक्रेडिबल इंडिया। भारतस्य अस्य सांस्कृतिक सम्पदः संरक्षणं संवर्धनं प्रसारश्च देशस्य उच्च प्राथमिकता स्यात्। यतो हि इयं देशस्य अभिज्ञानेन सह अस्या अर्थव्यवस्थायै अपि महत्वपूर्णाः वर्तते। सर्वभाषाणां शिक्षणं नवीन अनुभवात्मक विधिना समृद्धि कार्यते। तत्र सरलीकरणेन एप्स माध्यमेन च भाषाणां सांस्कृतिक दृष्ट्या यथा चलनचित्रं रंगमञ्चः कथावाचनं काव्यं संगीतं इत्यादि विषयान् संयुज्य विभिन्न प्रासंगिक विषय सह वास्तविक जीवनानुभवानां सम्बन्धस्य महत्त्वं दर्शयन् तेषां पाठनं भवति। सा संस्कृति अस्माकं भाषासु समाहिता विद्यते। साहित्यं नाटकानि संगीतं चलचित्रम् इत्यादि कलाप्रकारकाणां पूर्णरूपेण प्रशंसनं भाषां विना न सम्भवति। संस्कृते संरक्षणाय संवर्धनाय प्रसाराय च अस्माभिः तस्याः संस्कृते भाषाणां संरक्षणं संवर्धनं च करणीयं भविष्यति।
अस्तु, महोदये, सद्य एव विनिर्मितस्य नूतन संस्कृत पाठ्यपुस्तकस्य दीपकम् इत्यभिनामधेयकस्य निर्माणं केन प्रकारेण राष्ट्रिय शिक्षा नीत्यानुसारं जातम्? कृपया प्रतिपादयतु।
अस्तु तावत्, यथा मया पूर्वमेव प्रतिपादितं यत् संस्कृतभाषा अप्राचीनकालात् भारतीयकलायाः, संस्कृत्या, सभ्यतायाः, दर्शनस्य, विज्ञानस्य, गणितस्य, इतिहासस्य, तन्त्रज्ञानादीनां विषयाणाम् अभिव्यक्ते माध्यमरूपा वर्तते। अतः एव भारतस्य संविधाने अष्टमसूच्यां वर्णिता आधुनिकीयं भाषा। अस्याः साहित्यं विशालतमम् अस्ति। उच्यते यत् ग्रीक लैटिन साहित्य द्वयमपि मेलयित्वा तुलना क्रियते चेदपि तत् संस्कृत भाषा साहित्य समानं भवितुं नार्हति। अतः भारतस्य संविधाने संस्कृत भाषायाः स्थानं विशेषतः कल्पितम् अस्ति। राष्ट्रिय शिक्षा नीति 2020 तथा च राष्ट्रिय पाठ्यचर्या रूपरेखा 2023 इत्यनयो अनुगुणम् एतत् पुस्तकं निर्मितम् अस्ति। पाठ्यपुस्तकं न केवलम् एकम् उपकरणम् अथवा माध्यमम् अपि तु तत्तद् भाषायां निहितस्य ज्ञानराशे बहिः प्रकाशनस्य सामग्री अस्ति। प्रायः षष्ठकक्षायां प्रथमवारं छात्राः संस्कृतं पठन्ति, इत्यतः बालानां सुखबोधाय सर्वेऽपि पाठा सचित्रं सरलमानक संस्कृतेन च लिखिता। औपचारिकरूपेण चतुर्णामपि भाषाकौशलानां विकासाय पाठेषु अभ्यासेषु च विशेषता अवधानं कृतम् अस्ति। सर्वेषु पाठेषु भाषिकतत्त्वानि समायोजितानि सन्ति। एतत् पाठ्यपुस्तकम् औपचारिकव्याकरणभूयिष्ठं नास्ति, चेदपि छात्रः भाषामाध्यमेन व्याकरणविषयान् अवगन्तुं प्रभवेत्। संवादाः, श्लोकाः, कथा, गीतानि, सुभाषितानि, प्रहेलिका, गद्यांशा चेति एवं प्रकारेण पाठ्यपुस्तके विविधता प्रदर्शिता, येन कक्षायाम् अध्येतॄणाम् अध्यापकानां च मध्ये अन्तःक्रिया सातत्येन सम्भवेत्। सामाजिक, सांस्कृतिक, नैतिक मूल्यपरकः पाठः अपि अस्मिन् पाठ्यपुस्तके निहिता सन्ति। पाठानाम् अन्ते वैविध्यपूर्णा अभ्यासा संयोजिता सन्ति। अभ्यासशालिनी सा विद्या इति उक्त्यानुसारं शिक्षणम् अधिगम अर्जन प्रक्रियायाम् अभ्यासस्य विशिष्टं महत्त्वं प्रसिद्धमेव। भाषा शिक्षण अधिगम अर्जन प्रसंगे तु अभ्यासाम् अति विशिष्टं स्थानम् इति विचार्य अस्मिन् पुस्तके अभ्यासान् प्रति विशिष्टं अवधानं प्रदत्तम्। वस्तुतः इदं पुस्तकं केवलं पाठ्यपुस्तकमेव न अपि तु अभ्यास पुस्तकम् अपि अस्ति। धन्यवादः।
धन्यवादः महोदये।
रम्यं ज्ञानदीप प्रज्वालितवत्यै विद्वद्वरेण्यायै भूयांसि धन्यतावचांसि आविष्करोमि। अधुना अवसरोऽयं संस्कृत दिग्दर्शनस्य समागतः। संस्कृतरत्नस्य प्रचाराय प्रसाराय च कृत्स्नेऽपि विश्वमण्डले समाचरितानि समाचर्यमाणानि च कृत्यानि अवधार्य संस्कृते निष्ठां श्रद्धां भक्तिं च प्रवर्धामहे। तदिदं समाचरति सुरेश चंद्र शर्मा।
भारतस्य प्रख्यात पंडित ही सनातन धर्म परंपरायां शिक्षा पत्री वचनामृतयोः योगदान विषये विशेषेण प्रशंसा कृता। मासस्यास्य षोडश दिनांकात् अष्टादश दिनांक पर्यन्तं श्री स्वामी नारायण संप्रदायस्य प्रसिद्धे तीर्थस्थले वड़ताले गुजरात दक्षिण भारत बनारस ही सह वड़ताल नगरे त्रिदिवसीयं अंतर्राष्ट्रीय सम्मेलनं संपन्नम्। एतस्मिन् अंतर्राष्ट्रीय त्रिदिवसीय सम्मेलने अनेकाः विद्वांसः भागं गृहीतवन्तः। श्री लक्ष्मीनारायण देव द्विशताब्दी महोत्सवस्य अवसरे वड़ताल मन्दिरेण सनातन धर्मेण प्रेरितं स्वामी नारायण संप्रदायस्य वचनामृतं शिक्षापत्रे ग्रन्थम् इति विषये अंतर्राष्ट्रीय संगोष्ठी समायोजिता। भारतीय तत्वानुसंधान परिषदा सहितं अष्टादश केन्द्रीय राज्य स्तरीयं च विश्वविद्यालयं मिलित्वा अधिकाधिकं पञ्चशतं सक्षम सारस्वताः एवं सत्रारम्भे आचार्य श्री राकेश प्रसाद जी महाराज महाभागाः पूज्य ज्ञान जीवन स्वामी महावर्याः अध्यक्षाः देव प्रकाश स्वामी महाभागाः इत्यादयः सन्ताः उपस्थिताः आसन्। गुजरातस्य महान् विद्वान् सारस्वतः डॉक्टर बलवंत जानी इत्यस्य नेतृत्वे शास्त्री श्री माधव प्रिय दास स्वामी इत्येतस्य अध्यक्षतायाम् इत्यनेन अशास्त्रीय प्रकरणानां समाधानं कृत्वा मूल संप्रदायस्य दर्शनं प्रस्तुतं कृतं, यस्मिन् कुलपति विभाग प्रमुखाः विशिष्टाः विद्वांसश्च विचारिणीयं भाषणं दत्त्वा संगोष्ठीं सफलं कृतवन्तः। ये अनेके विद्वांसः बनारस दक्षिण भारतस्य संतोषेण उक्तवन्तः यतो अद्य वयं विशेषाः मूल संप्रदायस्य सिद्धान्तः स्पष्टः अस्ति।
महोदयाय नैकशः धन्यवादाः। अयि सखायः, सहृदयाः बालकाः अपि संस्कृतं श्रावं श्रावं धन्यत्वम् आप्नुयुः, येन निखिलमेव जगत् संस्कृतमयं सम्भवेदिति विचिन्त्य बालानां कृते विशेषतः कश्चित् प्रभागः कल्पितो विद्यते। अतः अस्मिन् प्रभागे प्रियतमैः वचनैः स्वात्मानम् उपस्थापयति दीपकः सौलंकी।
अयि भो बालाः, बालवल्लर्यां वयं गायामः गीतमेकम्। गीतस्य शीर्षकोऽस्ति बालः खेलिष्यति, विभास्यति, प्रकाशं करिष्यति, सूर्यः आकाशे उदेष्यति, गमिष्यति, लिखिष्यति, स्मरिष्यति, बाला विद्यालये पठिष्यति, धाविष्यति, स्थास्यति, भ्रमिष्यति, बालः क्रीडाक्षेत्रे खेलिष्यति, वदिष्यति, चलिष्यति, हसिष्यति, नायकः नाटके नर्तिष्यति, बोधिष्यति, शासिष्यति, पविष्यति, शिक्षकः कक्षायां भविष्यति।
साधु, सुन्दरं प्रस्तवनम्। अधुना संस्कृतभाषाज्ञानं विना संस्कृते निगूढतत्त्वं नैवाधिगन्तुं शक्यते। अस्माद्धेतोः कैश्चिद् अनुवादवाक्यैः भाषां शिक्षयति अस्मदीय सहयोगिनी साधना शर्मा।
नमस्कारः, अहं साधना शर्मा एक भारत श्रेष्ठ भारत अंशे संस्कृत हिंदी प्राकृत भाषासु स्वच्छ भारत अभियानांतर्गतम् पंच उद्घोष वाक्यम् श्रावयामि। प्रथमं वाक्यम् संस्कृते स्वच्छं भारतम् स्वस्थं भारतम्, हिंद्याम् स्वच्छ भारत स्वस्थ भारत, प्राचीन प्राकृते सुवच्छं भारतम् सुअरोगं भारतम्। द्वितीयम्, एकं पदं स्वच्छतां प्रति, हिंदी भाषायां एक कदम स्वच्छता की ओर, शौरसेनी प्राकृत भाषायां एको पौ सुवच्छता स भट्टी। तृतीयम्, स्वच्छता आचरण में लाएं, संस्कृते स्वच्छता आचरणेन भवितव्या, प्राकृत भाषायां सुवच्छतम आचरणेन पविसये। चतुर्थं वाक्यम्, समग्रम स्वच्छम भवेत भारतम्, हिंदी भाषायां पूरा भारत हो स्वच्छ, प्राकृत भाषायां सर्वं भारतं सुवच्छं होवौ। पंचमं च वाक्यं, स्वच्छ भारत अभियाने भागं गृह्णीयाम, सुन्दरं भारतं रचयाम, स्वच्छ भारत अभियान में ले भाग, भारत सुन्दर बनाए एक साथ, प्राकृत भाषायां सुवच्छ भारतं अभियानं पौलहये सुन्दलं करोये सहय। धन्यवादः।
महोदयायै साधुवादः। प्रियाः मे श्रोतारः, यथाक्रमं कार्यक्रमोऽयं समाप्तिपदं सम्प्राप्तो विद्यते। कालेऽस्मिन् भवतां भवतीनां च समुपस्थित्या नितान्तं हर्षमनुभवामः। सत्रस्यास्य विषये कृपया संस्कृतसाप्ताहिकी @gmail.com इति ईमेल माध्यमेन स्वीयान् प्रतिस्पन्दान् प्रेषयन्तु इति प्रार्थये। आगामिसप्ताहे अभिनवं रञ्जकम् अङ्कमादाय यथा समयं पुनर्मिलामः। धन्यवादाः।